सर्वेभ्यः राम राम राम। यावत् अन्ये आगच्छन्ति तावत् ध्यानश्लोकेन प्रारम्भं कुर्मः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम् अम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्। नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दाय तपत्रनेत्र, येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः। वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं, यत्कृपातमहं वन्दे परमानन्दमाधवम्। धृतराष्ट्र उवाच, धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः, मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय। सञ्जय उवाच, तं तथा कृपया विष्टम् अश्रुपूर्णाकुलेक्षणम् विषीदन्तमिदं वाक्यम् उवाच मधुसूदनः। सर्वेभ्यः राम राम राम। प्रायः सम्यक् श्रूयते इति मन्ये। तत्र प्रथमाध्याये यावत् क्षेत्रे क्षेत्रे धर्मं कुरु इति वाक्यमपि अस्माभिः दृष्टमस्ति, धर्मक्षेत्रे कुरुक्षेत्रे इति वाक्यं स्वीकृत्य तत्रैव क्षेत्रे क्षेत्रे धर्मं कुरु इति अस्माभिः तत्र पदव्यस्तत्वेन अस्माभिः प्राप्तमासीत्। तत् प्रथमं वाक्यं प्रथमपादमेव अस्माकं कृते भगवद्गीतायाः सारं दर्शयति इत्यपि अस्माभिः दृष्टमासीत्। एका लघुकथायाम् अस्माभिः दृष्टमासीत् तत्र क्षेत्रे क्षेत्रे धर्मं कुरु इत्येव भगवद्गीतायाः सारं, गीतासारं प्रथमवाक्ये प्रथमपादे एव वर्तते इति तत्र ब्राह्मणपत्नी उक्तवती इति अस्माभिः तत्र प्रथमकक्षासु दृष्टमासीत्। तद्वाक्यमेव अनुसृत्य इदानीम् अग्रे उच्यते श्रीकृष्णेन अर्जुनं प्रति। तत्र यदि वयं पश्यामः द्वितीयाध्याये अस्माभिः उपदेशं तत्र कृष्णः अर्जुनं प्रति, प्रथमं तावत् तत्र शोकं न कर्तव्यं। किमर्थं शोकं न कर्तव्यं? यतः आत्मा शाश्वतं, देहः तत्र नश्वरः, दतु शाश्वतः परम्। एवं तत्र शोकेन किं प्रयोजनम् इति सः पृच्छति। अनन्तरम् आत्मनः लक्षणं सर्वं वदति, न एनं शस्त्राणि न छिन्दन्ति, पावकः न दहति, अयं तावत् अच्छेद्यः, अयं तावत् अदाह्यः, अयं तावत् अक्लेद्यः, अशोष्यः, एवं नित्यः, सर्वगतः, स्थाणुः, अचलः, अव्यक्तः, अचिन्त्यः, अविकार्यः इत्यादि तत्र आत्मनः लक्षणं सम्यक् उक्तमस्ति। अपि च एनं नित्यजातं नित्यं वा यः मृतं मन्यसे सः सम्यक् न जानाति, अयं तावत् नायं हन्ति न हन्यते इत्यपि अस्माभिः दृष्टमासीत्। अग्रे यः कोऽपि जातस्य पुरुषस्य मृत्युः ध्रुवः एव, अपि च यः मृतः भवति यदि सः मोक्षं प्राप्नोति तर्हि सः तत्र मुक्तिः प्राप्नोति, नो चेत् यः मृतः भवति सः पुनः जन्म स्वीकरोति, यः इदानीं जातः अस्ति सः अवश्यं ध्रुवं मृत्युः प्राप्नोत्येव इत्यपि अस्माभिः दृष्टमासीत्। अपि च तत्र यदि वयं पश्यामश्चेत् भूतानि यानि सन्ति ते पूर्वं तावत् अव्यक्तानि भवन्ति, तत्र मध्ये व्यक्तानि भवन्ति, अन्ते अपि पुनः तावत् अव्यक्तान्येव भवन्ति। एवम् अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिधनान्येव, एवं सति तत्र लाजिकल् रीजनिङ्ग् ददाति, तः स्टेप् बै स्टेप् रीजनिङ्ग् ददाति। तत्र तत्र का परिदेवना, तत्र का परिदेवना, तत्र किमर्थं शोकः करणीयः, किमर्थं नत्वं शोचितुमर्हसि इत्येव सः वदति। पुनः अस्माभिः आश्चर्यवत् पश्यति कश्चिदेनम्, आश्चर्यवद् वदति तथैव चान्यः, आश्चर्यवच्चैनम् अन्यश्नोति श्रुत्वाप्येनं वेदन चैव कश्चित् इत्यपि अस्य अतीव आश्चर्यकरश्लोकस्यापि अर्थः अस्माभिः दृष्टमासीत्। अयं श्लोकः तावत् अतीव आश्चर्यः अस्ति। ये ये यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव, तत्र यदा तत्र ब्रह्मणि चित्तं रमते तदा केवलं नन्दति नन्दति नन्दत्येव, तादृश अवस्थायां सर्वं तावत् आश्चर्यवदेव भवति। एवं तत्र अस्माभिः अयं श्लोकः अतीव प्रमुखः, अयं श्लोकः अतीव तत्र परमानन्ददायकः श्लोकः इत्यपि अस्माभिः दृष्टमासीत्। अग्रे अस्माभिः दृष्टमासीत् अयं देहे सर्वस्य देहे अपि तत्र देही यदस्ति स देही तावत् नित्यम् अवध्यः, देही नित्यम् अवध्यः अयं, तस्मादपि कारणेन न त्वं शोचितुमर्हसि। एकत्रिंशत् श्लोकात् अस्माभिः दृष्टमस्ति, स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि, किमर्थं चेत् पूर्वं तत्र आत्मलक्षणकारणेन न विकम्पितुमर्हसि। अनन्तरं तावत् स्वधर्मरीत्या यदि पश्यामश्चेदपि स्वधर्ममपि चावेक्ष्य, हे अर्जुन, त्वं विकम्पितुं तत्र स्खलितुं नार्हसि, न तत्र तत्र न न अर्हसि, यतः धर्म्यात् युद्धात् क्षत्रियस्य अन्यः क्षत्रियस्य जीवने अन्यः किमपि श्रेयो नास्ति। यच्छ्रेयस्यान्निश्चितं ब्रूहि तन्मेति पृच्छति किल अर्जुनः, तदर्थं सः इदानीम् उत्तरं वदति। धर्म्यात् युद्धात् अन्यः श्रेयः क्षत्रियस्य न कदापि विद्यते। अत्र पश्यामश्चेत् स्वधर्मं चावेक्ष्य न विकम्पितुमर्हसि, क्षत्रियस्य धर्म्यात् युद्धात् अन्यः श्रेयः कदापि न विद्यते। अग्रे अस्माभिः श्लोका नम्बर् 32 अपि दृष्टमस्ति, यदृच्छया चोपपन्नं स्वर्गद्वारमुपाकृतम् उपावृतं शुकिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्। तत्र हे पार्थ, यदृच्छया उपपन्नम् अपावृतं स्वर्गद्वारं तत्र ईदृशं युद्धं तत्र सुखिनः क्षत्रियाः एव तत्र लभन्ते, ये ये अतीव भाग्यवन्तः सन्ति, ये भाग्यवन्तः क्षत्रियाः सन्ति ते एव एतादृश तत्र स्वर्गद्वारमुपावृतं धर्मयुद्ध अवसरं प्राप्नुवन्ति। So only people who are very very kshatriyas, who are very fortunate, will get an opportunity like this to do a dharma yuddha and establish their kshatriya dharma. Tadartham he partha akaranta sambodhana yadrichaya, yadrichaya strilinga tritiya ekavachanam, upapannam apavritam swargadwaram dvitiya vakti ekavachanam, idrisham yuddham sarvam tavat dvitiya vakti ekavachanam, sukhinah kshatriyaha pullinga prathama vakti bahuvachanam, labhante लभ धातोः लट्लकार प्रथमपुरुष बहुवचन आत्मनेपदी तत्र प्रयोगः, लभते लभेते लभन्ते, लभसे लभेते लभध्वे, लभे लभावहे लभामहे। इदानीं पश्यामः, हे अर्जुन, इदं युद्धं त्वया यदृच्छया प्राप्तमस्ति, वस्तुतः इदं युद्धं नहि अपि तु उद्घाटितं स्वर्गद्वारमिति भावय। ईदृशं युद्धं केवलं पुण्यशालिनः क्षत्रियाः, ये ये भाग्यवन्तः क्षत्रियाः, सुखिनः क्षत्रियाः सन्ति ते एव प्राप्नुवन्ति इति सः सम्यक् वदति। सन्धिभागे पश्यामः चोपपन्नम् च उपपन्नम् गुणसन्धि स्वर्गस्य द्वारम् स्वर्गद्वारम् षष्ठी तत्पुरुषः उपपन्नम् उप उपसर्गपूर्वक पद प्लस् क्त अपावृतम् अप आ वृ प्लस् क्त भूतकृदन्त अस्माभिः दृष्टमस्ति। एतत् सर्वम् अस्माभिः तत्र विशेषांशाः अतीव विस्तारतया दृष्टमस्ति कथम् अस्मदीयाः ये ये भारताः सन्ति, भारताः इत्युक्ते भासीरथाः ये ये सन्ति, ते सर्वे स्वधर्मकृते स्वजीवनमेव त्यागं कृतवन्तः, तादृशश्रेष्ठभारतीयाः सन्ति इति अस्माभिः दृष्टमासीत्। अग्रे अपि श्लोक नम्बर् 33 अस्माभिः तत्र इन्ट्रोडक्षन् कृतमासीत्। अथ चेत् त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि, अस्माभिः दृष्टमासीत्। परच्छेदः पश्यामः अथ चेत् त्वम् इमं धर्म्यं सङ्ग्रामं न करिष्यसि तदा ततः स्वधर्मं कीर्तिं च हित्वा केवलं पापम् अवाप्स्यसि। पश्यामः हे अर्जुन हे पार्थ, अथ इत्युक्ते किं? युद्ध आरम्भानन्तरं, यदि युद्ध आरम्भात् प्रागेव भवता तत्र उक्त, यदि तत्र उच्यते अहं युद्धं न करोमि मम वैराग्यमेव श्रेयः भवति अहं भैक्ष्यमाचरामि इति पूर्वमेव उक्तमासीत् चेत् तेन वैराग्येन तत्र साधु भवति, नो चेत् एतत् सर्वं मिथ्या वैराग्यम् अस्ति, एतत् सर्वं केवलं कातरता अस्ति, तदर्थम् अथ चेत् त्वम् इमं धर्म्यम्, इमं धर्म्यम् एनं धर्मयुद्धं सङ्ग्रामं न करिष्यसि, धर्मयुद्धं न आचरिष्यसि चेत् ततः स्वधर्मं कीर्तिं च हित्वा केवलं पापम् अवाप्स्यसि। ततः स्वधर्मम् आत्मधर्मं कीर्तिं च यशश्च हित्वा विहाय केवलं पापं, पापम् इत्युक्ते किल्बिषं, यत् धर्माचरणेन धर्माचरणात् यत् तत्र धर्म आचरणात् विना यत् भवति तादृशपापं किल्बिषम् अवाप्स्यसि प्राप्स्यसि। अथ अव्ययं चेत् अव्ययं त्वं युष्मच्छब्द इमम् अपि इदं तत्र युष्मच्छब्द द्वितीयाभक्ति, धर्म्यं सङ्ग्रामं द्वितीयाभक्ति, न करिष्यसि डुक्रिन्स् लिट्लकार, ततः अव्ययं स्वधर्मं कीर्तिं द्वितीयाभक्ति एकवचनं, खित्वा क्त्वान्ताव्ययं पापं द्वितीयाभक्तिति अवाप्स्यसि अव उपसर्गपूर्वक आपुलृ लृट् लकार मध्यमपुरुष एकवचनम् अस्माभिः दृष्टमस्ति। स्वधर्मं स्वस्य धर्मं हित्वा हि प्लस् क्त्वा कृदन्ताव्ययं धर्म्यं धर्म्यं धर्मस्य इदं धर्मसम्बन्धि धर्मयोग्यम् इत्यादि तत्र विग्रहवाक्यं कर्तुं शक्यते। अकीर्तिं चापि भूतानि कथयिष्यन्ति ते व्ययं सम्भावितस्य च कीर्तिः मरणादतिरिच्यते, अस्माभिः एतदपि दृष्टमासीत्, केवलं तत्र इन्ट्रोडक्षन् कृतमासीत्। अकीर्तिं च अपि भूतानि कथयिष्यन्ति ते अव्ययं सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते। एकवारं तत्र श्लोकं पठन्तु पश्यामः। अपि च किं भवति इत्युक्ते हे अर्जुन, जनाः ये सन्ति, अत्र भूतानि इत्युक्ते जनाः, अन्ये जनाः ये ये सन्ति ते सर्वे किं कुर्वन्ति, ते वदन्ति वा? यत्र अत्र अर्जुनः तावत् अतीव मर्यादापुरुषः, सः तत्र स्वगुरून् आचार्यान् सर्वान् दृष्ट्वा सः अतीव मर्यादायुक्तो भूत्वा तान् प्रति अहं तत्र इषुभिः कथं प्रतियोत्स्यामि पूजार्हा वरिसूदना इत्यादि सः वाक्यानि उक्त्वा सः युद्धात् गतवान् प्रतिनिवर्तनं कृतवान् तादृश अर्जुनः महान् इति कोऽपि वदति वा कदापि नैव वदति यतः भूतानि ते अव्ययम् अकीर्तिम् अपि कथयिष्यन्ति अस्माभिः तत्र कीर्ति इति वाक्यम् अस्माभिः दृष्टमासीत् कथं तावत् पुरुषः स्वकीर्त्या एव तत्र जीवनं तत्र स्वजीवनं शाश्वतं कर्तुं शक्नोति इति अस्माभिः दृष्टमस्ति ओन्ली बै फेम् अ पर्सन् केन् आल्वेस् बिकम् इम्मार्टल् एवमेव यदि अकीर्तिः अस्ति चेत् सा अकीर्तिरपि कदापि नष्टा न भवति तत्र फ्रम् जनरेशन्स् टु जनरेशन्स् पीपल् विल् पास् आन् स्टोरीस् एवम् अव्ययम् अकीर्तिम् अपि जनाः केवलं कथयिष्यन्ति तदेव वर्णयन्ति अनन्तरं सम्भावितस्य चाकीर्तिः मरणात् अतिरिच्यते तत्र मरणं तावत् क्लेशाय भवति सत्यमेव परम् अकीर्तिः यदस्ति तद् तत् सम्भावितस्य अकीर्तिः तत्र प्राप्तस्य अकीर्तेः तेन किं भवति तया किं भवति तया तावत् प्रतिनिमिषमपि सा अतिरिच्यते प्रतिनिमिषमपि तेन कष्टं भवति तत्र सम्भावितस्य अकीर्तेः यत् कष्टमस्ति मनःक्लेशः यदस्ति तत् प्रतिनिमिषम् अपि बाधते उक्तमस्ति किल श्लोके अस्माभिः तत्र चिन्तायाश्च चितायाश्च बिन्दुमात्रं विशिष्यते चिता दहति निर्जीवं चिन्ता दहति जीविनम् एवमेव तत्र दुष्कीर्तिः यदस्ति दुष्कीर्त्या तत्र चिन्तनं यद्भवति तेन तत्र जीवसहितं पुरुषं प्रतिनिमिषम् अपि तत्र सा दहति एवं हे कृष्ण यदि त्वं युद्धं न करिष्यसि तर्हि जनाः दीर्घकालं यावत् तव अकीर्तिमेव कथयिष्यन्ति ते वदन्ति अर्जुनः युद्धात् पलायनं कृतवान् सः कातरः सः न तु वीरः सः क्षत्रियः नैव आसीत् इत्येव जनाः वदन्ति अव्ययम् अस्ति अव्ययं तत्र अव्ययाम् अस्ति वा नैव अव्ययम् एव यदि अव्ययाम् अस्ति चेत् तत् केवलं तत्र टैपिङ्ग् एरर् भवति तावदेव अव्ययम् एव कुत्र अस्ति अव्ययम् ते अव्ययम् अकीर्तिम् अव्ययं यदस्ति तत्र अनश्वरम् अव्ययं यत् व्ययं न भवति यत् तत्र न क्षयं न भवति तादृशमेव अव्ययम् अकीर्तिम् तादृश अत्र अव्ययम् इत्युक्ते तत्र इण्डिक्लेनबिलिटि न स्वीकर्तव्यम् अव्ययं विच् इस् एवर् लास्टिङ्ग् तत्र विच् विल् नाट् रिड्यूस् तत्र दुष्कीर्तिः वा सत्कीर्तिः अस्ति चेत् तत् केवलं वर्धते पीपल् ओन्ली पास् आन् फ्रम् मौत् टु मौत् फ्रम् हियर् टु हियर् दे कीप् लिसनिङ्ग् अण्ड् स्प्रेडिङ्ग् द न्यूस् अबौट् ऐदर् फेमस् आर् इन् फेमस् थिङ्ग्स् देर् फोर् तत् इट् विल् नेवर् अस्ति इन् द श्लोक अव्ययम् अकीर्तिञ्चापि भूतानि कथयिष्यन्ति ते व्ययं व्ययमेव अहमपि पश्यामि अकीर्तिं चापि भूतानि कथयिष्यन्ति ते व्ययाम् एकनिमिषम् अहमपि तत्र पश्यामि एकवारम् अत्र तदेकवारम् अहं दृष्ट्वा वदामि कीर्ति यदस्ति तत्र स्त्रीलिङ्गमस्ति एवम् अव्ययाम् इति स्वीकर्तुं शक्यते समीचीनम् अकीर्तिं चापि भूत् अकीर्ति अस्ति किल एवम् अव्ययः अकीर्ति अव्ययाम् अकीर्तिं कनेक्टेड् वर्ड्स् एवं कीर्तेः विशेषणं वा अव्ययाम् एव भवति समीचीनम् अव्ययाम् एव भवति अकीर्तिं चापि भूतानि कथयिष्यन्ति ते व्ययाम् एवं सम्यक् अव्ययाम् एव भवति समीचीनं धन्यवादाः थेङ्क्स् फार् नोटिङ्ग् डौन् दट् थेङ्क्स् फार् हेल्पिङ्ग् मी दट् एवम् अकीर्तिं चापि भूतानि कथयिष्यन्ति ते व्ययां तत्र हे अर्जुन भूतानि ते अव्ययाम् अकीर्तिं कथयिष्यन्ति समीचीनम् कनेक्टेड् वर्ड्स् एनिवेस् आकारान्त स्त्रीलिङ्ग अस्ति अव्यया शब्दः अव्यया अस्ति समीचीनम् ज्ञातम् सम्भावितस्य च कीर्तिः मरणादतिरिच्यते एवं तत्र जनाः केवलं भवतः दुष्कीर्तिकथाः एव कथयन्ति सर्वैरपि प्रशंसनीयस्य मानिनस्य च जनस्य यः तत्र भवति अकीर्तिः मरणादपि अधिकां पीडां जनयति यदि अकीर्तिः तत्र भवति चेत् सा मरणादपि अधिका पीडां जनयति तदर्थं मानी यः अस्ति तत्र मानीजनः ये ये सन्ति ते सर्वे मानिनः सर्वे सर्वदा सत्कीर्ति सद्यशः प्रापणे सर्वदा ते महान्तः यत्नं कुर्वन्ति अग्रे पश्यामः सन्धिभागे च अपि सवर्णदीर्घसन्धिः ते अव्ययां ते प्लस् अव्ययां पूर्वोपसन्धिः चाकीर्तिः च अकीर्तिः तत्र सवर्णदीर्घसन्धिः अकीर्तिर्मरणात् विसर्गरेफ मरणादतिरिच्यते जष्ट्व मरणात् अतिरिच्यते जष्ट्वसन्धिः अनन्तरं सम्भावितः सम्भावितः सम्भावितस्य च सम्भावितः सम उपसर्गपूर्वक भूधातोः निच् प्लस् क्त तप्रत्ययः भूतकृदन्तः सम्भावितः तस्य षष्टिविभक्ति सम्भावितस्य पुरुषस्य अकीर्तिः मरणादेव अधिकां पीडां जनयति मरणात् तत्र सम्भावितस्य अकीर्तिः अतिरिच्यते अतिरिच्यते अधिका अधिका भवति का अधिका भवति पीडा अधिका भवति चिन्ता अधिका भवति तत्र क्लेशः यदस्ति सः अधिकः भवति पश्यामः इदानीं श्लोक नम्बर् 35 पश्यामः भयाद्रणादुपरतम् मंस्यन्ते त्वां महारथाः येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः येषां न त्वं बहुमतो भूत्वा यास्यसि लाघवम् अतीव सरलश्लोकः अस्माभिः अयं वाक्यं तावत् पूर्वम् उक्तमस्ति कर्तृकर्मक्रियान्वेषणम् एकवारं द्रष्टुं शक्यते वा महारथाः त्वां मंस्यन्ते लाघवं यास्यसि येषां लाघवं यास्यसि अपि स्वीकर्तुं शक्यते येषां त्वं बहुमतः आसीत् तेषां लाघवं यास्यसि एवं स्वीकर्तुं शक्यते समीचीनं महारथाः त्वां भयात् रणात् त्वाम् उपरतं मंस्यन्ते सर्वे चिन्तयन्ति भवान् भयात् रणात् प्लाव तत्र पलायनं कृतवान् इति तावदेव अस्माभिः एतद् वाक्यं दिस् कान्सेप्ट् हेस् आलरेडी बीन् डिस्कस्ड् ड्यूरिङ्ग् एक्स्प्लेनेशन्स् फार् प्रीवियस् श्लोकास् एवं पश्यामः शीघ्रं द्रष्टुं शक्यते भयात् रणात् उपरतं मंस्यन्ते त्वां महारथाः येषां च त्वं बहुमतः भूत्वा यास्यसि लाघवम् हे अर्जुन तत्र येषां त्वं बहुमतः आसीत् तेषां बहुमतः भूत्वा अपि इदानीं त्वं लाघवं यास्यसि पीपल् आफ् दोस् हु आल्वेस् यू हेव् थाट् ग्रेट् आफ् देम् अण्ड् दे हेव् आल्वेस् थाट् ग्रेट् अबौट् यू ईवन् दो भीष्मद्रोणादयः ज्येष्ठाः बट् दे आर् आल्वेस् प्रौड् दट् अर्जुन इस् सच् अ ग्रेट् वारियर् सः धर्मस्थापनं करोति तत्र धर्मस्थापनाय साहाय्यं करोति इत्येव ते सर्वे अर्जुनोपरि सर्वदा ते सर्वे अतीव तत्र आशापूरिताः ते बहुमतः तत्र अतीव दे वर् फुल् आफ् प्रैड् टुवर्ड्स् अर्जुन एवं तेषां येषां त्वं बहुमतः आसीत् तत्र असीः तत्र इदानीं यदा यदि त्वं तत्र युद्धात् गच्छसि चेत् लाघवं यास्यसि यू विल् ओन्ली गेट् अगौरव यू विल् ओन्ली गेट् अकीर्ति एण्ड् यू विल् देन् यू विल् लूस् युवर् आल् दट् गाम्भीर्य आल् दट् ग्रेट् बहुमत विच् यू हेड् दे विल् स्टार्ट् थिङ्किङ्ग् आफ् यू इन् अ वेरि वेरि लैटर् वे लाघवम् इत्युक्ते लैटर् वे इत्युक्ते अगौरवम् अकीर्तिकरम् इति स्वीकर्तुं शक्यते अद् तावत् प्रथमं वाक्यं महारथाः च त्वां भयात् रणात् उपरतं मंस्यन्ते ये ये सन्ति जनाः ते कदापि नैव वदन्ति तत्र अर्जुनः श्रेष्ठः सः मर्यादापुरुषः इति कदापि न वदन्ति ते केवलं वदन्ति भयकारणात् अर्जुनः रणात् युद्धात् उपरतं विरतं धावितं पलायितम् इति मंस्यन्ते चिन्तयिष्यन्ति पश्यामः येषां यत् दकारान्त सर्वनाम यद् शब्दः षष्टिविभक्ति बहुवचनं येषां त्वं युष्मच्छब्दः प्रथमाविभक्ति एकवचनं बहुमतः अकारान्तः पुल्लिङ्ग प्रथम एकवचनं भूत्वा किं तत्र क्त्वान्ताव्ययं भूधातोः क्त्वा प्रत्ययः त्वान्ताव्ययं भूतकृदन्त त्वान्ताव्ययं कृदन्ताव्ययं लाघवं तावत् अकारान्त नपुंसकलिङ्ग द्वितीयाविभक्ति एकवचनं किं यास्यसि लाघवं यास्यसि अगौरवास्पदत्वं यास्यसि अकीर्तिपदं यास्यसि एवं यास्यसि या धातोः या प्रापणे धातोः लृट् लकार मध्यमपुरुष एकवचनं यास्यति यास्यतः यास्यन्ति यास्यसि यास्यथः यास्यथ यास्यामि यास्यावः यास्यामः एवं लृट् लकार मध्यमपुरुष एकवचनं महारथाः ये ये महारथाः अन्ये महारथाः सन्ति ते सर्वे किं कुर्वन्ति त्वां युष्मद्वितीयाभक्तिवचनं भयात् रणात् षष्टिविभक्ति एकवचनं भयकारणात् पञ्चमीभक्ति भयात् रणात् पञ्चमीभक्ति एकवचनं उपरतं धावितं द्वितीयाभक्ति एकवचनं मंस्यन्ते लृट् लकार मध्यमपुरुष एकवचनं आत्मनेपदि मन् धातुः एवं लृट् लकार मध्यमपुरुष एकवचनं परम् आत्मनेपद्यां वर्तते मंस्यन्ते अग्रे गच्छामः हे अर्जुन अद्य तावत् भवान् सर्वेषाम् उपरि गौरवास्पदं तावत् आसीत् यदि युद्ध अकरणेन भवान् तेषां मध्ये तत्र लाघवमेव यास्यति तत्र ते महारथाः भवान् भयात् रणात् उपरतः इत्येव चिन्तयन्ति तत्र ते अन्यरीत्या न चिन्तयन्ति अतीव सरलः वर्तते अग्रे पश्यामः भयात् रणादुपरतं भयात् रणात् उपरतम् उभयत्रापि जष्ट्वसन्धिः त रीप्लेस्ड् बै द बहुमतः भूत्वा विसर्ग उकार सकाररेफ भवति उकार भवति अनन्तरं गुणसन्धिः तत्र भूत्वा इति अस्ति स्वरः नास्ति एवं तत्र अग्रे पूर्वरूपो नास्ति केवलम् उत्वः गुणः भवति बहुमतः बहूनां मतः इत्युक्ते कन्सिडर्ड् मीन्स् तत्र पीपल् हू कन्सिडर् रेस्पेक्ट् मर्यादा इति स्वीकर्तुं शक्यते बहुमतः Don't we know the concept of don't worry about it. Samichinam. Tatra Krishna, very very good point, very good question asked by Malati madam. Don't we normally encourage the concept of don't worry what the society will think of you, do what you think is right. Here we know Arjuna is not doing the right thing, therefore Krishna can call out but saying that because of what other things you should do otherwise, would that be right? What do you think of this? Very good question, challenging question. So what we are seeing is Krishna first explained at a very very high level about the universal concepts. Then he explained the how body atma he comes to next level. He does not, Krishna being in a very very high level, for Krishna, for a person, that which is what we were trying to think, is for a person who is seeing atma, all these things are some sort of, this is not even applicable kinds, but still he slowly comes down to see what Arjuna is thinking and then comes to his level and start explaining things during that stage. Though first atma, deha and all are good to hear, good to listen, but difficult to implement. Therefore he comes and tells, okay Arjuna, all that is fine. Is there something called duty? Are you a duty bound person at least? Don't worry about atma and other things, you are duty bound. By duty you need to do this. So he tells all these, explains. The next also, in case, just he is just building upon his case, that's all. He has already told, tatra, the thing is, you have to do your duty, you have to do your right thing, you are not even, you don't have real vairagya, you are only becoming, you are talking about pseudo notional things. He is explaining that. On top of that, he is building his case and telling, even in case by any chance you think that others will start praising you because you are you will not kill them, that also he is ruling out that possibility also. That's all. He is not saying that because others will think you do this, that is not the kind of thing. To build his case on one by one reasoning, he is just adding this sentence. That's all. He is telling that do the swadharma, tatra, do your swadharma, do your duty. That is the right thing. And this is only a temporary illusionary object. Tomorrow after 2 days again you will start, you will take off your gandiva and come back to fight, which is not the right thing to do. Apart from that also, in case at any bottom of your heart, in case you think just by not fighting Bhishma and Drona, and they will start praising you and they'll be so happy that my shishya did not fight me, he ran away, in case you have a small thing that might be there, please remove that also. That is also not going to happen. They will only curse you more and say that all the while, the entire life, I gave this dhanurvidya, this archery knowledge, all this to fight at the right time, to fight a dharma yuddha and win over adharma. At that time, you quit everything and you ran away, O Arjuna. Therefore, even they will be scolding you. Even those pujarhas who are there, Bhishma and Drona, will also be happy only if you do swadharma. They will not be happy if you run away. So he is linking it in that way. Hope that helped. It is just a thought what I am sharing. Hope that helps us in understanding this shloka. Okay, thank you. Evam bahumatah asti bahunam matah uparatam upa upasargapuraka ramudhatoho kta pratyah bhuta kridanta uparatah uparatam, all the three vibhaktis we can have. Laghavam laghoho bhavah, laghu ityukte trivial, so you will be trivialized, you will be thought of as a very trivial person. Laghu asya bhavah, laghoho bhavah yadasti bhavartaka bhavarthe anupratyah tatra laghavam bhavati. Guroho bhavah gauravam bhavati, laghoho bhavah laghavam, laghavam gauravam evam bhavati tadidantah. Agre gachhamah ekavaram agrima shlokam api pathamah. Avachya vadamscha bahune vadishyanti tavahitah nindantastava samarthyam tato dukhataram nukim. Very very nice shloka. Again a little bit of connected concept only. We can just see this. Ekavaram shlokam patantu, kartrikarma kriyanveshanam ekavaram patantu. Thank you. तत्र श्लोकं तावत् द्विवारं पठन्तु। अवाच्यवादांस् वदिष्यन्ति तव अहिताः ये सन्ति वदिष्यन्ति, निन्दन्तः तव सामर्थ्यं ततो दुःखतरम्। अहिताः अवाच्यवादान् वदिष्यन्ति, अहिताः वदिष्यन्ति, बहून् वदिष्यन्ति, भवतु भवतु स्वीकर्तुं शक्यते। अहिताः वदिष्यन्ति, बहून् वदिष्यन्ति, अवाच्यवादान् बहून् वदिष्यन्ति। कीदृशं वदन्ति? अवाच्यवादान् बहून् वदिष्यन्ति। के वदन्ति, वदिष्यन्ति? अहिताः ये ये सन्ति, तव अहिताः पुरुषाः ये ये सन्ति, ते बहून् अवाच्यवादान् वदिष्यन्ति। अपि च तव सामर्थ्यं निन्दन्ति, निन्दन्तः तव सामर्थ्यं ततो दुःखतरं न किम्। वेरि वेरि सिम्पल्, हि इस् जस्ट् बिल्डिङ्ग् आन् द प्रीवियस् श्लोक लिटिल् बिट् मोर्। तत्र वाट् विल् पीपल्, दे विल् टाक् वेरि लैट्लि अबौट् यु, दे विल् टाक् बेड्लि अबौट् यु, हौ विल् दट् बि, जस्ट् टु बिल्ड् आन् दट्। तत्र क्षत्रियस्य इट् इस् समटैम्स् वेन् पीपल् आर् कन्विन्सिङ्ग् अदर्स्, दे विल् डू इट् अगेन् थ्रू वेरियस् मीन्स्. दे विल् बि एन् अफर्मेटिव् वे आफ् टेलिङ्ग्, इफ् यु डू दिस् इट् इस् गुड्. द सेकेण्ड् थिङ्ग् इस् इफ् यु डोण्ट् डू दिस् दीस् थिङ्ग्स् विल् हेपन्. किञ्चित् प्रिक्लिनेस्लि यदि वदामश्चेत् तत्र किञ्चित् वेर् इट् रियली प्रिक्स् देम् ड्यूरिङ्ग् दट्, इफ् यु टेल् देम् it will always be easy to convince them and make them realize the real impact. Tavadeva, any of these again we should remember are not kevalam tatra, it is not just to justify Arjuna to do the yuddha, it is not that, that is not how it is there. It is the future impact, clearly he is making Arjuna understand about it. Just that in an argument or convincing argument, when somebody is pricked about the real impact, that is when they little bit wake up. Just to wake him up a little bit, sometimes you need to push somebody. That is what he is doing here. Pashyamaha avachyavadana cha bahune vadishyanti tava ahitaha nindantaha tava samarthyam tataha dukkataram nukim. Pashyamaha tatra, he Arjuna, tava ahitaha ye ye santi te sarve api tava samarthyam nindantaha बहून् अवाच्यवादान् वदिष्यन्ति, ततः दुःखतरं किं नु अस्ति. ये ये शत्रवः अहिताः सन्ति, अहिताः न हिताः, अहिताः हिताः, हिताः के हिताः, तत्र गुरवः आचार्याः सन्ति, ते सर्वे हिताः. तदर्थमेव तत्र पदमस्ति पुरोहितः, पुरोहिताः सन्ति. ये ये तत्र आगामि दिनेषु यत् अस्माकं श्रेयः हितः भवति तत्सर्वं ये पुरुषाः वदन्ति ते एव पुरोहिताः. पुरोहिताः आर् दोस् पीपल् हू टेल् अस् वाट् इस् गुड् फार् अस् इन् फ्यूचर्. एवं हित इत्युक्ते गुड्, परं न हित इत्युक्ते अहितः. हे 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 अर्जुन, तव अहिताः पुरुषाः ये ये सन्ति, आल् युवर् एनिमीस्, शत्रवः, अरयः ये ये सन्ति, ते सर्वे किं कुर्वन्ति? तदनन्तरं वन्स् यु रन् अवे, वन्स् यु गो अवे फ्रम् दिस् फील्ड्, वाट् दे विल् डु? दे तव सामर्थ्यं निन्दन्तः, दे विल् ओन्ली टाक् अबौट् युर् दूषणं कुर्वन्ति, तव सामर्थ्योपरि ते दूषणं कुर्वन्ति. किमित्युक्ते या या इन् द अदर् प्रीवियस् वार्स् अण्ड् आल् हि हेड् सपोर्ट् आफ् इन्द्रादीनां, तत्र सपोर्ट् आसीत्, तदर्थमेव सः युद्धं कृतवान्. स्वयं तावत् अर्जुनस्य किमपि शक्तिरेव नास्ति, सः केवलं तत्र अन्यशक्त्या सह युद्धं करोति. एवं तादृश अर्जुनः तत्र, एवं ते सर्वे निन्दां कुर्वन्ति, ते तत्र तव सामर्थ्यं निन्दन्तः, शक्तिं दूषयन्तः, बहून् अवाच्यवादान्, बहून् नानाविध अवाच्य अवक्तव्यवचनानि वदिष्यन्ति, कथयिष्यन्ति, ततः दुःखतरं नुकिम्. वाट् विल् बि मोर् दुःख देन् दट्? दिस् इस् अगेन् लिङ्क् टु द अदर् थिङ्ग्, टु जस्ट् क्लारिफै अर्जुनास् मैण्ड् सेयिङ्ग् दट् वाट् एवर् हि सेड्, तत्र कार्पण्यदोषोपहतस्वभावः, पृच्छामि त्वां धर्मसम्मूढचेताः, देन् लेटर् हि आल्सो सेड् गुरून् अहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके. टुडे यु आर् इन् एन् इल्यूशन्ड् वे, यु विल् से ऐ विल् टेक् भैक्ष्य एण्ड् गो, भिक्षाचरणं करोमि, सन्न्यासाश्रमं स्वीकरोमि, अहं गच्छामि, बुद्धं शरणं गच्छामि इति भवान् गच्छति चेदपि, what will happen tomorrow, two or three people will talk in a very very prickly way to you. Tatrate dushanam kurvanti, samarthyopari dushanam kurvanti, tada kim bhavati, punaha tatra kshatriya rosham prapya, bhavan punaha yuddhartam agachiti chete, tat samyagna bhavati, tatra chitta chanchalyam bhavati. People will always think that you are only fickle minded. Again and again, you will only be doing wrong things, you will only be doing very very fickle mindedness. It is not the mark of a kshatriya or a strong minded person. Evam sati, with all these future impact, he Arjuna, tatra shokam kartum nashakyate, ataha swadharmam dharma yuddham kuru. That is the conclusion we can take from these kind of shlokas. Pashyamaha punaha, he Arjuna, tava yushmat shabda dakaranta shashti vakti ekvachanam tavate yuvayoho vam yushmakam vaha. అహితః ప్రథమ పురుష ప్రథమ ప్రథమ వక్తి పుల్లింగ బహువచనం అహితః అహితౌ అహితః అహితః యే న హితః సంతి యే అస్మాకం శత్రవః అరయః సంతి తే సర్వే చ అవ్యయం తవ షష్టి వక్తి ఏకవచనం సామర్థ్యం అకారాంత నపుంసకలింగ ద్వితీయ వక్తి ఏకవచనం నిందంతః దూషణం కుర్వంతః దూషయంతః నిందాం కుర్వంతః తత్ర పుల్లింగ ప్రథమవక్తి బహువచనం బహూన్ అవాచ్య వాదాన్ బోత్ ఆర్ కనెక్టెడ్ పుల్లింగ ద్వితీయవక్తి బహువచనం తత్ర ప్రథమాతి ఆసీత్ ద్వితీయం కుర్వంతు యు కెన్ కరెక్ట్ ఇట్ ద్వితీయవక్తి బహువచనం బహూన్ అవాచ్య వాదాన్ వదిష్యంతి అవాచ్య వాదాన్ వాచ్య వక్తుం యోగ్య వాచ్య న వక్తుం యోగ్య అవాచ్య అవాచ్య వాదాః అవాచ్య పూరితాః అవాచ్య వాదాః అవాచ్య పూరితాః వచన అవాచ్య పూరితాని వచనాని ఏవం అవక్తవ్య న వక్తవ్య విచ్ విచ్ ఆల్ దోస్ విచ్ షుడ్ నాట్ బి టోల్డ్ అన్ అటరబుల్ థింగ్స్ యదస్తి అవాచ్య వాదాన్ బహూన్ నతు ఏకవారం బహువారం వదంతి బహువాక్యాని వదంతి దే విల్ టెల్ మెనీ థింగ్స్ మెనీ టైమ్స్ ఏవం తాదృశ బహూన్ అవాచ్య వాదాన్ వదిష్యంతి కథయిష్యంతి తదుపరి వాట్ కెన్ బి ద గ్రేటర్ దుఃఖ అతిశయ దుఃఖం కిం భవతి అగైన్ లీడ్స్ టు అకీర్తి అగైన్ లీడ్స్ టు ఫ్రమ్ అకీర్తి చింత అగైన్ లీడ్స్ టు దట్ ఎవ్రీ మినిట్ పీపుల్ విల్ టాక్ బ్యాడ్ అబౌట్ యూ విల్ బీ వరీడ్ ఏవం సంభావిత అకీర్తి మరణాద్ అతిరిచ్యతే ఇట్ కమ్స్ టు ద సేమ్ కాన్సెప్ట్ యాజ్ వి సెడ్ కాన్సెప్ట్స్ విచ్ ఆర్ వేదాంతపర ఆర్ విచ్ ఆర్ భక్తిపర It is fine to repeat them again and again because those concepts which are really related to Vedanta, Atmajnana and others, only by listening again and again, Shravanam, Mananam, Nididhyasanam, again and again listening, contemplating, understanding, assimilating, imbibing in us, reflecting, all these stages we have to pass, only then at least a little bit we can get Vedanta Pravesha by then. So that is what Krishna is helping him. He is repeating lot of things. Similarly, bhakti again what happens is we can get bhakti. Suddenly sometimes tatra spuranam bhavati. For a small second we might get some bhakti, but for it to be shashvata, again and again we need to keep on listening to bhakta charitam, tatra bhakti, bhagavatam, ramayanam. We keep listening. It will again and again, all these stories, we would have listened to Ramayanam hundreds of times, but again, every time we listen to it, we get new ideas, new concepts, we understand it in a better way, and the bhakti bhavana gets jagarita in us. Right? So therefore, he is again and again repeating. Why sir, again and again he is repeating, we may ask? Because of these reasons. Even if he is repeating, it is not an issue, but to imbibe those concepts very strongly, it is being repeated. హే అర్జున తవ అహితాః తవ సామర్థ్యం నిందంతః బహూని అవాచ్యాని వచనాని తవ విషయే వదిష్యంతి తవ దుఃఖతరం అన్యం కిం భవతి వాట్ కెన్ బి గ్రేటర్ సారోఫుల్ టు యూ దాన్ దిస్ కైండ్ ఆఫ్ అ దుష్కీర్తి బికాస్ ఆల్ యువర్ లైఫ్ యు హావ్ బీన్ ఫైటింగ్ ధర్మయుద్ధ ఇన్ దిస్ కైండ్ ఆఫ్ ఎ కేస్ వాట్ ఎల్స్ కెన్ బి గ్రేటర్ ఫర్ యూ పశ్యామః సంధి అవాచ్యవాదాం అవాచ్యవాదాన్ ప్లస్ చ ఋత్వం విసర్గ అనంతరం అనుస్వారాగమ సత్వసంధి ఫస్ట్ ఇట్ బికమ్ సత్వసంధి అవాచ్యవాదాన్ ప్లస్ చ అవాచ్యవాదాంస్ చ ఐడలీ ఇట్ వుడ్ హావ్ బీన్ అవాచ్యవాదాంస్ చ अगेन अस्तित्व हैपन्स एंड इट बिकम्स अवाच्यवादांश्च एवं तत्र सत्व एंड अस्तित्व टू संधिस हैपन तवाहिताः